गणेशाय नमः। श्री गुरुभ्यो नमः। हरिः ओम्। श्री आदिनाथ मत्स्येन्द्र शाबरानन्द भैरवाः चोरङ्गी मीनगोरक्ष विरूपाक्ष पिलेशयाः मन्थानो भैरवो योगी सिद्धिर्बुदश्च कण्ठधीः कोरण्ढकः सुरानन्दः सिद्धिपादश्च चर्पटिः खानेरी पूज्यपादश्च नित्यनाथो निरञ्जनः कपाली बिन्दुनाथश्च काक चन्दीश्वरा हुयाः अल्लामा प्रभुदेवश्च गोढाचोली चठिन्ठिनी भानुकी नरदेवश्च खण्डा कापालिकस्तथा इत्यादयो महासिद्धा हठयोगा प्रभावतः खण्डयित्वा कालदण्डं ब्रह्माण्डे विचरन्ति ते। शान्ति शान्ति शान्तिः। हरिः ओम् तत्सत्।